कर्मणा लभ्यते चिन्तया वा नाप्यस्ति दाता पुरुषस्य कश्चित् पर्याय योगाद्विहितं विधात्रा कालेन सर्वं लभते मनुष्यः। सप्ताहाभ्यन्तरे एव अस्माभिः संस्कृत साप्ताहिकी इति विशिष्टाङ्के प्रविष्टम्। नमस्काराः प्रियाः वाग्देवी समुपासकाः, मे श्रोतारः, इयम् अहं निधि तिवारी समेषां श्रोतॄणाम् अभिवादनं स्वागतं च करोमि। श्रोतारः, कर्म विना इह जगति किमपि न लभ्यते। यथोक्तं गीतायामपि स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः इति। स्वकर्मणि रतः मनुष्यः एव सिद्धिं प्राप्नोति। तावत् श्रोतृजनाः, कर्मणि रतेभ्यः श्रेष्ठजनेभ्यः सुभाषितानुभागस्यान्तर्गतं साधना शर्मा किं श्रावयति, चलामः तां प्रति।
अच्युतानन्त गोविन्द नामोच्चारण भीषजात् नश्यन्ति सकलाः रोगाः सत्यं सत्यं वदाम्यहम्। अर्थात् अच्युत, अनंत और गोविंद नामों के उच्चारण करने से सभी तरह के रोग नष्ट हो जाते हैं। द नेम्स अच्युत, अनंत एंड गोविंद डिस्ट्रॉय ऑल डिजीजेस फॉर दोज हु रिपीट दीज नेम्स। दिस इज एन एस्टैब्लिश्ड ट्रुथ दैट आई एम रिपीटिंग।
ज्ञान वर्धकाय सुभाषिताय धन्यवादाः भवत्यै। शोभनायाः प्रस्तुतेरनन्तरम् अग्रिमम् प्रभागम् प्रदीयामः, यस्मिन् रिंको जोशी इत्यनया गीयते प्रसङ्गविभागः।
मुदाकरात् मोदकम् सदा विमुक्तिसारकम् कलाधरावतन् सुखम् विलासलोकरक्षकम् अनायकैकनायकम् विनाशिदेवदैत्यकम् नताशुभाशुनाशकम् नमामि तम् विनायकम्। नतीतरातिभीकरम् नवोदितार्कभास्वरम् नमत्सुरारिनिर्जरम् नताधिकापदुद्धरम् सुरेश्वरम् निधीश्वरम् गजेश्वरम् गणेश्वरम् महेश्वरम् तमाश्रये परापरम् निरन्तरम्।
अहो, रमणीय श्लोकाय धन्यवादाः भवत्यै। श्रोतारः, यथा पूर्वमेव मया भाषितं यत् जगति सर्वे जनाः स्वलक्ष्यप्राप्तये कर्मणि एव रताः भवन्ति, ततः कर्माभिप्रेतेभ्यः श्रोतृजनेभ्यः सुषमा कुमारी कर्माधारिताः घटनाः द्रुतगत्या प्रवदति। शृणुमस्तावत्।
प्रधानमन्त्री नरेन्द्र मोदी नवदिल्ल्यां नागर विमानन सम्बद्ध द्वितीय एशिया प्रशान्त मन्त्री स्तरीय सम्मेलने भागं निर्व्यूढम्। केन्द्रीय मन्त्रिमण्डलेन सप्तत्योत्तर वयोवृद्धेभ्यः जनेभ्यः आयुष्मान भारत जन आरोग्य योजनायां समावेशनाय अनुमतिः प्रदत्ता। प्रतिरक्षा मन्त्रिणा राजनाथ सिंहेन जोधपुरे भारत रक्षा विमानन प्रदर्शन्याः प्रवर्तमान वर्षाय च कृते उद्घाटनं विहितम्। हरियाणा विधानसभा निर्वाचनेषु एकस्मिन्नेव चरणे जम्मू कश्मीर राज्य च तृतीय अंतिम चरणाय च कृते नामांकन प्रक्रिया प्रपूरिता जाता। विदेश मंत्रिणा डॉक्टर सुब्रमण्यम जयशंकरेण द्विदिवसीय स्वीया स्विट्जरलैंड यात्रा संपादिता। क्रीडासु मणिपुर प्रदेशीय टीजी आंगल विद्यालयेन सुब्रतो चषक अंतरराष्ट्रीय पाद कंदुक प्रतिस्पर्धायां जूनियर बालकानां प्रतियोगिता विजिता।
प्रमुखासां वार्तानां कृते धन्यवादाः सुषमायै। जिज्ञासवः मे श्रोतारः, भवन्तः सर्वे यस्मै प्रभागाय प्रतीक्षारताः आसन् तस्यानुक्रमः आगतो वर्तते ज्ञानविज्ञानप्रभागस्य। अद्य ज्ञानाभिवर्धनाय डॉक्टर युवराज भट्टराई इत्यमुना सह उपस्थितास्ति वरिष्ठा संस्कृत शिक्षिका वेद विशेषज्ञा च डॉक्टर ज्योत्सना श्रीवास्तव महोदया। आयान्तु एनं प्रभागं सर्वे मिलित्वा शृण्मः।
नमो नमः। प्रिय श्रोतारः, अयमहं युवराज भट्टराई भवतां समेषां स्वागतं करोमि साप्ताहिक्या विशिष्टे साक्षात्कार कार्यक्रमे। अद्य अस्माभिः साकमस्ति आधुनिक संस्कृतस्य सुख्याता विदुषी डॉक्टर ज्योत्सना श्रीवास्तववर्या। असौ वैदिक निबन्ध लेखने, प्रबन्धबन्धने, कथा प्रसंगानां च लेखने, छात्रेषु संस्कृतस्य लोकप्रियता वर्धने च सविशेषं प्रसिद्ध्यति। सम्प्रति असौ बालभारती पब्लिक विद्यालये संस्कृतस्य वरिष्ठ शिक्षिकात्वेन कार्यपरा वर्तते। आयन्तु अनया सह वैदिक बोधस्य संस्कृतोन्नयनस्य च विषये जानीमः। मान्य महोदये, स्वागतमस्ति अत्र भवत्याः।
नमो नमः, नितरां प्रीता अस्मि, भवते धन्यवादाः।
मान्य महोदये, सर्वादौ तु अहं ज्ञातुमिहे यत् किं नाम वेदा। कृपया, भवती वैदिक विदुषी वर्तते, अतः सारत्वेन प्रतिपाद्यताम्।
समीचीनः प्रश्नः उत्थापितः भवता युवराज महोदय। वस्तुतः विश्व वाङ्मये वैदिक साहित्यं स्वीयया गंभीरतया व्यापकतया विपुलतया च विशिष्टं पदं धारयति। सर्वासु मौलिभूतासु विद्यासु वेदविद्याः सर्वतः शीर्षस्थानं भाजनीभूताः सन्ति। वेदचतुष्टयाः विषये सूक्तिरेका प्रसिद्धयति, श्रुतयश्च अस्य निःश्वसितं वेदाः इत्यनुसारेण परब्रह्मणो निःश्वासरूपाः सन्ति। चत्वारो वेदाः एतद् आधारेणैव शब्दं ब्रह्मरूपं मत्वा सेवमानाः सुदयः वेदवाक्यं सेवन्ते। एवं सर्वस्य वैश्विक वाङ्मयस्य आधारभूताः वेदाः सन्ति इति वक्तुं शक्यते।
सुष्ठु प्रतिपादितं भवत्या, सर्वस्यापि वाङ्मयस्य आधारत्वेन वेदाः भवतीभिः अत्र प्रतिपादितम्। श्रीवास्तव महोदये, भवान् भवति खलु संस्कृत शिक्षिका, परं समाजे कथ्यते यत् संस्कृतं तु प्राचीनतममिति, तर्हि भवती शिक्षिकारूपेण आधुनिक साहित्यरूपेण संस्कृतस्य स्थितिं कुत्र कीदृशीं च विलोकयति?
सत्यम् आह भवान्, आधुनिक साहित्ये संस्कृतस्य भूमिका स्थितिः वा अतिशय महत्वपूर्णा वर्तते। यतोहि अहम् आकर्णयामि महतां समालोचकानां विदुषां मुखात् यत् प्राचीनं सदपि संस्कृतं न विनायते। शिक्षिका धिया तु महीयते, संस्कृतं सततं छात्रेषु इति कथने नास्ति सन्देहः। पश्यन्तु भवन्तः, अधुना विद्यालयेषु छात्राः पूर्ण मनोयोगेन संस्कृतं प्रति आकृष्यमाणाः सन्ति। अतः अहं मन्ये यत् साम्प्रतिके युगे संस्कृतं द्रुतं शिखरम् आरोहति।
एवं, भवती प्रतिपादितं यत् अत्र विद्यालयेषु संस्कृतं सम्यक्तया छात्रेषु लोकप्रियं भवति इति। महोदये, भवती खलु साम्प्रतिके समये, यतोहि विज्ञानस्य युगमिदं, विज्ञापनस्य चापि युगमस्ति, अतः अन्तर्जालमाध्यमेनापि संस्कृतस्य पठन पाठने सक्रिया वर्तते। अतः अहं पिपृच्छिसामि यत् किं सामाजिक सञ्जालमाध्यमानाम् उत वा प्रविधिनाम् उदयेन भवत्याः शिक्षणविधा छात्रान् पाठकांश्च यावत् प्रापणस्य पद्धतिः परिवर्तिता अस्ति? किं भवति मनुते यत् प्रविधिना संस्कृतशिक्षणे पूर्वतः अधिकं साहाय्यं विधीयते?
सामयिकः प्रश्नः। युवराज महोदय, वस्तुतः विज्ञानम् अयोयम् युगः, सर्वत्र प्रविधिनामेव वर्चस्वं दृश्यते, किन्तु शिक्षणक्षेत्रे प्रविधेः वर्चस्वं कोरोना कालात् अनन्तरं वर्धितम्। पूर्वं केवलं सूचना सन्देश मेलादि प्रेषणे एव प्रविधि प्रयुज्यते स्म, अथ च शिक्षण समये कक्षासु स्मार्ट फलकस्य पीपीटी प्रदर्शनस्य च प्रविधि प्रयुज्यते स्म। परं कोरोनायाः पश्चात् तु कक्षा एव संजाल माध्यमे आयोज्यन्ते।
एवं एवं,
तदनन्तरं मदीया शिक्षण प्रक्रिया प्रविधिना भृशं प्रभाविता अस्ति। प्रोक्तमेव मया कोरोना गमनेन वयं यांत्रिक पद्धतौ दक्षाः अभवाम।
एवं
सत्यमेव, आभासिक पटल द्वारा अनेके निज निज गृहस्था दूरस्था पाठकाः छात्रा मम शिक्षणं शृण्वन्ति, प्रश्नं पृच्छन्ति, पाठितं च परिशीलयन्ति।
एवं
प्रतिक्रिया प्रयच्छन्ति। अनेन नौविधिना प्रविधिना संस्कृत शिक्षण युगस्य महती प्रतिष्ठा सम्प्रति विलोक्यते। अतः संस्कृत शिक्षणे आभासिक पटलस्य साहाय्यम् अद्भुतम् अस्ति इति अहं मन्ये।
सत्यमाह भवति, यतो हि साम्प्रति तु गोष्ठी इत्यादिकमपि आभासिक पटलस्य माध्यमेन आयोज्यन्ते। मान्यवर्य, भवत्या शिक्षण समये बालानां जीवनेन सह, ये लघु लघु बालाः सन्ति तेषां जीवनेन सह संस्कृत भाषायाः कीदृशः सम्बन्धः स्थाप्यते येन ते संस्कृतं पठनार्थम् अभिप्रेरिताः भवन्ति?
शोभना प्रश्न कृतः भवता। एवं तु छात्राणां मानसेषु गृहस्य संस्कारजन्य रागात्मकः सम्बन्धः पूर्वतः एव भवति।
एवं
किन्तु तथापि विद्यालयीय बाल्येभ्यः संस्कृत पाठ्यक्रमस्य पाठने मया तत्र न केवलं रागात्मकः सम्बन्धः एव विलोक्यते, अपि तु तेभ्यः संस्कृतस्य व्यावहारिक सम्बन्धो अपि प्रतिपाद्यते।
सत्यम्।
ते कथ्यन्ते यत् संस्कृतभाषायाः माध्यमेन एव अस्माकं धार्मिका सांस्कृतिका कार्यक्रमाः सम्पूर्णे भारते सम्पाद्यन्ते।
सत्यम्।
अतः संस्कृतस्य जनजीवने समं निकटः सम्बन्धः अस्ति।
एवम्
इत्येव प्रतिपादनेन छात्राः अपि संस्कृतं प्रति भृशं रुचिमन्तो जायन्ते, पठने च संलग्नाः भवन्ति।
एवम्
कतिपय अभिभावकाः अपि संस्कृतं प्रति छात्राणां पठनार्थम् आग्रहवन्तो वर्तन्ते।
एवम्
अतः मया तु सर्वत्र संस्कृतमेव भाव्यते पाठ्यते च।
एवं भवतीभिः अत्र प्रोक्तं यत् अभिभावकानामपि तत्र आग्रहः वर्तते, एतत् सुखकरी सूचना अस्ति संस्कृतजगते। अस्तु श्रीवास्तव महोदये, अन्तिमं तावत् अत्र पृच्छामि, संस्कृतस्य विकासाय तत्र भवतीनां विद्यालये अन्यत् किं किं, पाठनात् अन्यत् किं किं क्रियमाणमस्ति, तद्विषये अत्र किमपि प्रतिपाद्यतामिति?
युवराज महोदय, अस्माकं विद्यालये प्राचार्यस्य श्री एल् वी सहगलस्य समर्थ दिशानिर्देशे मार्गदर्शने नेतृत्वे अभिप्रेरणे च संस्कृत भाषाया अत्यन्तं समृद्धा तथा विविधा कार्यकलापा नित्यं सुसंगत रूपेण आयोज्यन्ते। तेषु गीता श्लोक वाचन स्पर्धा, अन्तर्राष्ट्रिय गीता जयन्ती महोत्सव, त्रिदिवसीय संस्कृत प्रदर्शनी, वार्षिक संस्कृत पत्रिकाया प्रकाशनम् च विशिष्टान् स्थानानि धारयन्ति। तदनन्तरं संस्कृत अन्तर्विद्यालय प्रतियोगिता, कक्षायां प्रतिदिनं संस्कृत श्लोकस्य वाचनम्, संस्कृत समाचार वाचनम्, संस्कृत विज्ञापन प्रतियोगिता इत्यादिभ्यः कार्यक्रमाः अपि नियमित रूपेण सम्पाद्यन्ते। एते एव कार्यक्रमाः छात्राणां संस्कृतं प्रति रुचि जागरयन्ति तथा संस्कृत संवर्धनाय महान् योगदानं यच्छन्ति। अस्माकं महता प्रयत्नेन विद्यालये वातावरणम् अपि संस्कृतमयं जायते। संस्कृत दिवसानुसरे तु छात्रा शोभायात्रायां महता उल्लासेन भागं भजन्ति।
एवम् अस्तु, तत्र तु मन्ये छात्राः निरन्तरं व्यस्ताः भवन्ति। मान्ये ज्योत्स्नावर्ये, भवत्या साकं सम्भाषणम् अतीव ज्ञानवर्धकमासीत्। अस्माभिः भवत्याः संस्कृत साधनाविषये अभिज्ञानस्य अवसरो लब्धः। अद्यतने कार्यक्रमे एतावता अलम्। पुनः मेलिष्यामः। नमो नमः।
नमो नमः। धन्यवादः।
भवत्याः एतस्मात् साक्षात्कारात् वयं सर्वे निश्चप्रचम् लाभान्विताः भवामः। एतदर्थं भवत्यै धन्यता वचांसि। संस्कृतभाषां प्रत्यपि नैके जनाः कर्म कृत्वा देवभाषां पोषयन्ति। अस्याः महत्तामपि विभिन्नेषु स्थलेषु प्रतिपादयन्ति जनाः। तावत् देशस्य भागेषु विश्वे च के कार्यक्रमाः आयोजिताः, तान् विषयान् उररीकृत्य प्रस्तुतास्ति अस्मदीया सहयोगिनी निधिझा।
दिल्ली विश्वविद्यालयस्य राजधानी महाविद्यालये अक्टूबर मासस्य पञ्चदिनांकात् षड्दिनांकं यावत् संस्कृत पत्रकारिता इति विषयमवलम्ब्य द्विदिवसीय संगोष्ठी आयोक्ष्यते। अस्याम् संगोष्ठ्याम् संस्कृत जगतः विद्वांसः, विषय विशेषज्ञाः, सम्पादकाः, प्रकाशकाः, शोधच्छात्राः, संस्कृतानुरागिणश्च आमन्त्रिताः भवेयुः। अत्रेदम् अवधेयम् यत् संस्कृत पत्रकारिता इति विषये अनुसन्धित्सवः शोधपत्राणि प्रेषयितुम् अर्हन्ति। श्री लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालयेन सितंबर मासस्य दशमे दिनांके विश्व आत्महत्या रोकथाम दिवसस्य आयोजनम आभासीय व्याख्यानेन समनुष्ठितम्। संगीत नाटक अकादम्याः केन्द्रीय संस्कृत विश्वविद्यालय भोपाल परिसरस्य च संयुक्त तत्वावधानेन संत मीराबाई इत्यस्याः जन्म जयन्त्यवसरे कला धरोहरः इति कार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमेऽस्मिन् कार्यशालाः प्रदर्शनानि व्याख्यानानि च आसन्।
धन्यवादाः निधये। प्रियाः बालाः, भवतां समेषां कृते अस्माकम् सहयोगी कृष्णप्रसादोपाध्याय एकाम् अतिप्रियां रुचिकरां च बालवल्लरी इत्यस्याम् अन्तर्गतम् एकाम् कथाम् कथयति। अधुना सोत्साहम् सविचारम् सैनैतिकम् च शृण्वन्तु सर्वे कृपया।
अयि भो बालाः, सम्प्रति शृण्वन्तु भवन्तः बाल वल्लर्याम् एकाम् रुचिकराम् ज्ञानवर्धिकाम् च कथाम्। एकस्मिन् ग्रामे एकः रजकः वसति स्म। तस्य गृहे एकः कुकुरः एकश्च गर्दभः आसीत्। एकदा रात्रौ रजकस्य गृहे चोरः आगच्छत्। कुक्कुरम् अजागृतम् दृष्ट्वा गर्दभः अवदत्, भो कुक्कुर, पश्यतु गृहे चोरः अस्ति, कथन्न उक्कति भवान्? तदा कुक्कुरः अवदत्, अहम् किं करवाणि किं नैति मम बोधः, भवान् मौनम् तिष्ठतु। यः स्वामी स्वकुक्कुरम् पर्याप्तम् भोजनादिकमपि न यच्छति तस्य कार्यम् न करिष्यामि इति मम निर्णयः। गर्दभः अवोचत् यत् अहम् तु स्वामिनः सेवाम् सर्वतोभावेन करिष्यामि, अतः अहमेव ध्वनिम् कृत्वा स्वामिनम् जागरयिष्यामि। अनन्तरम् गर्दभेन ढेचू ढेचू इति उच्चध्वनिना स्वामी जागरितः, चौरश्च पलायितः। निद्राभङ्गेन रुष्टेन स्वामिना गर्दभः आमरणान्तम् ताडितः। अत एवोच्यते बालाः, पराधिकार चर्चाम् यः कुर्यात् स्वामि हितेच्छया सविषीदति चीत्कारात् गर्दभस्ताडितो यथा।
रुचिकरायै कथायै भवते धन्यवादाः। मे सुहृद् श्रोतारः, एक भारत श्रेष्ठ भारत इत्यस्य प्रभागस्य अन्तर्गतम् अस्मत् सहयोगिनया मुदिता वेतालेन सह वयम् भारतीय भाषासु कानिचन वाक्यानि आधृत्य भारतस्य ऐक्यभावम् अवलोकयामः। शृणुमस्तावत्।
प्रथमं वाक्यमस्ति, उपनिषदः हिन्दूधर्मस्य महत्वपूर्णाः श्रुतिधर्मग्रन्थाः सन्ति। पहला वाक्य है, उपनिषद हिंदू धर्म के महत्वपूर्ण श्रुति ग्रंथ हैं। कुमाऊनी में उपनिषद हिंदू धर्मक बहुते महत्वपूर्ण श्रुति धर्म ग्रंथ छे। द्वितीयम वाक्यमस्ति, उपनिषदाम संख्या अष्टोत्तरैक शत प्राय अस्ति। दूसरा वाक्य है, उपनिषदों की संख्या लगभग 108 है। कुमाऊनी में उपनिषद लगभग 108 छे। तृतीयं वाक्यमस्ति, मुख्याः उपनिषदः त्रयोदश सन्ति। तीसरा वाक्य है, मुख्य उपनिषद 13 हैं। कुमाऊनी में मुख्य उपनिषद 13 हैं। चतुर्थं वाक्यमस्ति, उपनिषदः संस्कृते उपनिबद्धाः सन्ति। चौथा वाक्य है, उपनिषद संस्कृत में लिखे गए हैं। कुमाऊनी में उपनिषद संस्कृत में लिखी गई। पंचमं वाक्यमस्ति, उपनिषदः वेदांत इति कथ्यन्ते। पांचवा वाक्य है, उपनिषद वेदांत कहलाते हैं। कुमाऊनी में उपनिषदों हैं वेदांत कुनी। धन्यवादाः।
सुष्ठुक्तम् भवत्या धन्यवादाः। प्रिय मित्राणि, अधुना कार्यक्रमस्यास्य नूतनांकः अवसीयते। अग्रिमे सप्ताहे अस्मिन् एव समये वयम् पुनर्मिलामः। भवन्तः सर्वे निजविचारान् प्रतिपुष्टिक्रियाः च nsdsanskrit@gmail.com इत्यत्र ईमेल संकेते प्रेषितुं शक्नुवन्ति, येन हि वयम् आभारभार सहिता भवामः। गमनार्थम् आज्ञाम् अस्यै उद्घोषिकायै यच्छन्तु। नमो नमः। जयतु संस्कृतम्, जयतु भारतम्।